अस्माभिः एतत् संन्याससूत्रम् इति ज्ञातं विद्यते. सूत्रस्य अर्थः अत् एङ् गुणसंज्ञः स्यात्. अत् इत्युक्ते किम् इति अनन्तरं पश्यामः. एङ् इत्यत्र अस्माभिः ज्ञायते एङ् इति एकार ओकारयोः प्रत्याहारसंज्ञा विद्यते. तत्र माहेश्वरसूत्रेषु ऐ उन् ऋलृक् एवोङ् ऐ औच् इति विद्यते. एवोङ् इत्यत्र एङ् इति विद्यते. एङ् इति प्रत्याहारः. एङ् इति प्रत्याहारे ये वो वर्णाः अन्तर्भवन्ति. ये ओङ् गुणसंज्ञको भवति इति एतत् सूत्रं कथयति. एतत् सूत्रम् अतपि गुणसंज्ञो भवति इति कथयति. इदानीम् एङ् इति प्रत्याहारे एवो इति वर्णौ समाविष्टौ. एतत्तु अस्माभिः दृष्टम्. अत् इत्यनेन कः वर्णः ग्राह्यः? अकारः ग्राह्यः. परन्तु अस्माभिः संज्ञाप्रकरणे दृष्टं यत् अकारस्य अष्टादशभेदाः सन्ति. ह्रस्वदीर्घप्लुतभेदाः अकारस्य विद्यन्ते. ह्रस्वस्य षड्भेदाः, दीर्घस्य षड्भेदाः, प्लुतस्यापि षड्भेदाः विद्यन्ते. एवम् अकारस्य अष्टादशभेदाः विद्यन्ते. तेषु कः स्वीकर्तव्यः इति अस्माभिः द्रष्टव्यम्. तद् इदानीम् अतिथि व्याख्यानेन कः वर्णः स्वीकर्तव्यः इत्युक्ते अस्माभिः तपरस्तत्कालस्य इति सूत्रं साहाय्यं करोति. तपरस्तत्कालस्य इति सूत्रं किं वदति? यदि तकारः अस्ति सूत्रे, तकारः यस्मात् वर्णात् विद्यते तस्य अर्थः कथं करणीयः इति तपरस्तत्कालस्य इति सूत्रं वदति. तपरस्तत्कालस्य इति सूत्रे पदच्छेदः तपरः, तत्कालस्य तः इत्युक्ते तः परः यस्मात् सः तपरः इति इत्यपि अर्थः कर्तुं शक्यते. अनन्तरं किम् अस्माभिः कर्तुं शक्यते इत्युक्ते तात्परः तपरः इत्यपि स्वीकर्तुं शक्यते. तपरः इत्यस्य शब्दस्य अर्थः तात्परः तपरः, तः परः यस्मात् सः तपरः इति पञ्चमी तत्पुरुषसमासेन वा बहुव्रीहिसमासेन वा विग्रहवाक्यं द्रष्टुं शक्यते. अत्र कः विग्रहः उपयुक्तः पाणिनिना इत्युक्ते उभौ अपि विग्रहवाक्यौ पाणिनिना अस्मिन् सूत्रे उपयुक्तौ. अतः तपरः, तपरः इत्युक्ते तपरत्वेन उच्चार्यमाणः तपरः तत्कालस्य ग्राहको भवति. तपरः इत्युक्ते तपरः, तः तात्परः. इदानीं किम् अस्ति अदेङ्गुणः इत्यत्र अकारस्य अनन्तरं तकारः अस्ति. एवं तपरः सञ्जातः अकारः. अनन्तरं तः परः यस्मात् असौ इत्यत्र एकारः अपि तपरः सञ्जातः. इदानीम् अस्माभिः द्रष्टव्यम् एतस्मिन् सूत्रे एङपि तपरः विद्यते यतोहि एतस्मात् परः तः अस्ति. इत्युक्ते एङ् प्रत्याहारः त इति तकारात् परं विद्यते. अतः एङ् अत् एङ् एकारः तकारः अकारात् परं विद्यते. अतः सो दि तकार इस् साण्ड्विच्ड् बिट्वीन् अकार अण्ड् एङ् नौ बै द तकार वाट् शुड् तपरः मीन्स् वाट् शुड् वि टेक् वि शुड् टेक् अकार अण्ड् द काल विच् इस् डिनोटेड् बै ह्रस्व अकार. ह्रस्वकार इस् तकर हेस् ता अट् इट्स् एण्ड्. इफ् एनी ता इस् एडेड् टु ह्रस्वकार इट् वि शुड् टेक् ह्रस्व ओन्ली. इफ् एनी ता इस् एडेड् टु दीर्घ अकार वि शुड् टेक् दीर्घ ओन्ली. इफ् इट् इस् एडेड् टु प्लुत वि शुड् टेक् प्लुत ओन्ली. सो दट् मीन्स् वि एण्ड् अप् वित् ओन्ली सिक्स् टैप्स्. इदानीम् अत् इति स्वीकरणेन किं भवति? षट्भेदाः एव स्वीक्रियन्ते. अतः इदानीम् आ एङ् इति उभौ अपि तपरौ सञ्जातौ. एवं किं भवति हस्तवर्णः एव स्वीकर्तव्यः इति भवति एवं येङ् एवो इति वर्णौ द्विमात्रिकौ स्तः इमौ अपि द्विमात्रिकवर्णानेव बोधयिष्यतः इति सञ्जातम् एवं तपरः इत्यनेन येङपि स्वीकर्तव्यः अकारः अपि स्वीकर्तव्यः इदानीम् अदेङ्गुणः इत्यत्र इत्यस्य सूत्रस्य अर्थः एवम् अभवत् ह्रस्व अकारः दीर्घ एकारः ओकारः चेति वर्णाः गुणसंज्ञकाः भवन्ति एवं एकारः ओकारः अपि एतेषामपि एकारस्य ओकारस्य द्वादशभेदाः सन्ति यतोहि एकारस्य ह्रस्वं नास्ति ओकारस्यापि ह्रस्वं नास्ति द्वादशभेदाः अस्माभिः स्वीकर्तव्यं वा इति प्रश्ने कृते षड्भेदाः एव स्वीकर्तव्याः दीर्घस्य षड्भेदाः स्वीकर्तव्याः कथं ज्ञायते येङपि तपरः येङ् तकारात् परं विद्यते अतः सः अपि तपरः सञ्जातः यदा तपरः भवति तत्कालस्यैव ग्रहणं कर्तव्यम् इति पाणिनिना नियमः कृतः केन सूत्रेण तपरस्तत्कालस्य इति परिभाषासूत्रेण अनियमे नियमकारिणी परिभाषा इति उच्यते एतत् परिभाषासूत्रं विद्यते इदानीं किं सञ्जातम् तपरस्तत्कालस्यैव इति ग्रहणेन अदेङ्गुणः इति सूत्रार्थं ह्रस्व अकारः दीर्घ एकारः दीर्घ ओकारः गुणसंज्ञकाः भवन्ति तेषां गुण इति नाम विद्यते दीर्घ एकारं वयम् आहूय पृच्छामः भवतः नाम किम् इति वयं पृच्छामश्चेत् एकारः मम नाम गुणः अस्ति ओकारम् आहूय पृच्छामश्चेत् भवतः नाम किं ममापि नाम गुणः अस्ति ह्रस्वाकारम् आहूय वयं पृच्छामश्चेत् भवतः नाम ममापि नाम गुणः अस्ति केन सूत्रेण भवता नाम प्राप्तम् इति वयं प्रश्नः पृच्छामश्चेत् अदेङ्गुणः इति सूत्रेण अस्माकं नाम गुणः अस्माकं सामान्यनाम गुणः इति विद्यते इति ते वर्णाः वदन्ति एवम् इदानीं किं भवति आद्गुणः इति सूत्रं पश्यामः आद्गुणः इति सूत्रं षष्ठाध्यायस्य प्रथमपादे 84th सूत्रम् इत्युक्ते चतुरशीतितमं सूत्रं विद्यते तत्र अष्टाध्याय्याम् अस्माभिः द्रष्टव्यम् आद्गुणः इत्यत्र पदद्वयं विद्यते आत् इति पञ्चमी एकवचनं गुणः इति प्रथमा एकवचनं किं भवति अनेन एतद्विधिसूत्रं विद्यते इदानीम् अदेङ्गुणः इति संज्ञासूत्रम् आद्गुणः इति विधिसूत्रम् उपकरोति अनयोः अवर्णात् गुणः भवति आत् इत्यस्य अकारस्य पञ्चविभक्तिः यथा रामस्य पञ्चविभक्तिः रामात् इति भवति तथा अकारस्य आत् इति भवति इत्युक्ते अवर्णात् अचि परे अचि इति कथम् आगतम् इत्युक्ते इको इणचि इत्यस्मात् अचि इति अनुवृत्तिः अस्ति संहिताधिकारः विद्यते एकपूर्वपरयोः इति अधिकारः विद्यते एकपूर्वपरयोः नाम अकारस्थानिद्वयं विद्यते पूर्वस्य परस्य स्थाने आदेशः भवति यण्सन्धौ अयादिसन्धौ तु किम् अभवत् एकस्य स्थाने एव आदेशः अभवत् इदानीं गुणसन्धौ तु एवं नास्ति स्थानिद्वयं विद्यते अतः कथम् एकः पूर्वपरयोः इति अधिकारः विद्यते कृपया एकः पूर्वपरयोः इति सूत्रं स्वीकरोतु एकः पूर्वपरयोः एकः पूर्वपरयोः एकः आदेशः पूर्वपरयोः एकः आदेशः भवति इति सूत्रार्थः एकपूर्वपरयोः इति अधिकारे आद्गुणः विद्यते सर्वैः सूत्रम् अष्टाध्याय्यां दृष्टं वा? अस्तु, इदानीं पुनः अवर्णात् अचिपरे पूर्वपरयोः, पूर्वपरयोः इति कथमागतम्? एकपूर्वपरयोः इत्यस्मात् अनुवृत्तिः, गुणः आदेशः स्यात् इति आगतम् संहितायां सत्याम्। इदानीम् अस्माभिः एवम् अकारः आकारः अकारः आकारः इकारस्य स्थाने एकारः, उकारस्य स्थाने ओकारः, अ उ इत्यस्य स्थाने ओकारः, अर् इत्यस्य स्थाने अर् अल् इति आगतम्। कथम् अर् अल् इति आगच्छति इति पश्यामः। तत्र एवोऽपि कथम् आगच्छति इति पश्यामः। एतदेव स्थाने अन्तरतमः इति परिभाषानुसारम् अस्माभिः स्थानं द्रष्टव्यम्। न श्रूयते, न श्रूयते इति पार्वती भगिनी इति श्रूयते वा? पार्वती भगिनी श्रूयते वा? लाग् औट् कृत्वा पुनः लागिन् करणेन मया श्रूयते। एवमेव महादेवन् महोदय अपि एवं कृतवान्। कदाचित् किं भवति, तद् मैक् मध्ये भवन्तः प्रेस् कुर्वन्ति चेत् कदाचित् तद् लाक् भवति, समटैम्स् इट् गेट्स् लाक्ड्। अतः लाग् औट् कृत्वा लागिन् क्रियते चेत् कदाचित् आडियो श्रूयते। कृपया करोतु, पार्वती भगिनी कोदण्डरामन् महोदयः, कृपया लाग् औट् कृत्वा लाक् करोतु। इदानीम् उदाहरणं पश्यामः। उप इन्द्रः इति स्थिते, उप इत्यस्य पकारोत्तर अकारः विद्यते, इन्द्रः इत्यस्य इकारः विद्यते। इदानीम् अकारः अवर्णः अस्ति, इकारः अच् अस्ति, अचि परे अनयोः स्थाने किं भवति इत्युक्ते गुणत्रयं विद्यते। अस्माभिः गुणवर्णाः, त्रयः वर्णाः विद्यन्ते। अकारः अपि गुणवर्णः, एकारः अपि गुणवर्णः, ओकारः अपि गुणवर्णः। इदानीं किं कर्तव्यम् अस्माभिः? आदेशः कः इत्युक्ते स्थाने अन्तरतमः इति परिभाषा आदरणीया। स्थाने अन्तरतमः इत्यत्र इदानीं स्थानी कः अस्ति? आ इ अकार इकारौ स्थानिनौ स्तः। अकारस्य स्थानं कण्ठस्थानम्, इकारस्य स्थानं तालुस्थानम्। इदानीं आदेशानां मध्ये अकारः कण्ठः अस्ति, कण्ठस्थानिकः अस्ति, एकारः कण्ठताल्लु स्थानिकः वर्णः अस्ति, ओकारः कण्ठोष्ठवर्णः अस्ति, एकारः कण्ठतालुवर्णः, अतः स एव स्वीकर्तव्यः। यतोहि स्थाने अन्तरतमः, सदृशे प्रसङ्गे सति सदृशतमः आदेशः स्यात् इति उक्तिः अस्ति। सदृशतमत्वं कस्य विद्यते? त्रिषु आदेशेषु सदृशतमत्वम् एकारस्यैव विद्यते। अतः अकार इकारयोः स्थाने एकारः कथम् आगतः? स्थाने अन्तरतमः इति सूत्रेण आगतः। अवगतं वा? स्थाने अन्तरतमः। अस्तु, एवं तत्र चित्रवर्णं देव इन्द्रः इत्यत्र अकार इकारयोः स्थाने स्थानिद्वयं विद्यते इति अत्र ज्ञेयम्। एण्सन्धौ तु एकः एव स्थानि, अत्र स्थानिद्वयं विद्यते, अकार इकारस्य स्थाने एकारः देवेन्द्रः इति भवति। इदानीं गङ्गा उदकम् इति पश्यामः। तत्र पुस्तके गङ्गोदकम् इति उदाहरणं दत्तम्। गङ्गा उदकम् इत्यत्र गकारोत्तर आकारस्य उकारस्य च सन्धिः। इदानीम् आकारः स्थानिनः स्थानं पश्यामः। स्थानिनौ द्वौ स्तः, आकारः उकारः, आकारस्य स्थानं कण्ठः, उकारस्य स्थानं तालु, इदानीं कस् किं करणीयम् अस्माभिः न उकारस्य स्थानं तालु इति असमीचीनम् सम्यक् उक्तं मया तत्र कट् पेस्ट् मध्ये एतत् उपपद्मानीयाम् ओष्ठौ इति अस्ति उकारस्य ओष्ठस्थानं विद्यते आकारस्य कण्ठस्थानम् उकारस्य ओष्ठस्थानम् इदानीम् ओक कण्ठोष्ठमेव स्वीकर्तव्यम् अस्माभिः ओकारः यतोहि कण्ठोष्ठम् अस्ति एवं गङ्गोदकम् इत्यत्र ओकारः कण्ठोष्ठ ओकारस्य कण्ठोष्ठस्थानात् ओकारस्य कण्ठोष्ठम् इति अस्ति किल सूत्रम् स्थानात् प्रसङ्गे सति अन्तरतमः एव आदेशः भवति अत्र आकार एकार आदेशः आकारः न अकारः अत्र दोषकृतः अस्मिन् स्लैड् मध्ये दोषः अस्ति आदेशाः तत्र अकारः एकारः ओकारः ओकारस्य स्थानं कण्ठोष्ठम् अतः ओकारः भवति एवं ज्ञातुं शक्यते अत्रापि स्थानद्वयं विद्यते इदानीम् उपदेशे अजनुनासिक इति सूत्रं पश्यामः एतत् उपदेशे अच् अनुनासिकः इत् इति सूत्रार्थः इति पदच्छेदः उपदेशे अच् अनुनासिकः इत् इति पदच्छेदः उपदेशे इति सप्तमी एकवचनम् अच् इति प्रथमा एकवचनम् अनुनासिकः इति प्रथमा एकवचनम् इति प्रथमा एकवचनम् इदानीम् अयम् इदं सूत्रं किं वदति उपदेशे अनुनासिकः अच्सन् उपदेशे अनुनासिक अच् इत्संज्ञः भवति किम् इत्युक्ते इदानीं किञ्चित् सावधानतया शृण्वन्तु उपदेशे उपदेशः नाम किं तत्र अस्माभिः दृष्टं धातुसूत्रगणो नादि इत्यादि उपदेशाः सन्ति पाणिनी पाणिनिशिष्याः यद्यत् आद्योच्चारणम् उपदेशः नाम आद्योच्चारणम् हलन्त्यमिति सूत्रे अस्माभिः ज्ञातम् उपदेशः नाम आद्योच्चारणम् एवम् आद्योच्चारणप्रसङ्गे यदि अच् भवति अच् तदपि अनुनासिक अच् भवति तद् इत्संज्ञको भवति इति सूत्रार्थः सरलं विद्यते उपदेशवा अवस्थायां यः स्वरवर्णः अनुनासिकः यदि भवति तस्य इत्संज्ञा भवति इत्संज्ञाकरणेन किं प्रयोजनम् आदिरन्त्येन सहेता इति प्रत्याहारसिद्धिः कदाचित् भवति तस्य लोपः इति लोपः अपि भवति एवम् अत्र अस्माकं लण् प्रत्याहारे इदानीं विशेषतः एतत् सूत्रम् अद्य अत्र किमर्थम् आगच्छम् अत्र किमर्थम् आगतम् इति अस्माभिः द्रष्टव्यम् इदानीम् अस्माभिः उदाहरणद्वयमेव स्वीकृतम् उपेन्द्रः गङ्गोदकम् इति उपेन्द्रः साधितः गङ्गोदकं साधितः तत्र कृष्णर्दिः तवल्कारः इति उदाहरणद्वयमस्ति महर्षिः कृष्णर्दिः एतादृश उदाहरणम् अस्माभिः करणीयम् किं किं तत्र उपदेशे अजनुनासिक इति सूत्रेण लण् इति प्रत्याहारे माहेश्वरसूत्रेषु लण् प्रत्याहारः विद्यते लण् प्रत्याहारः षष्ठं सूत्रं विद्यते ऐ उन् ऋल् ऋक् एवम् अयोच् हयवरट् लण् लण् प्रत्याहारे लकारोत्तर अकारस्य अनुनासिकसंज्ञा विद्यते अनुनासिक अकारः सः कथं ज्ञायते अनुनासिक अकारः तदा उच्यते प्रतिज्ञानुनासिक्याः पाणिनीयाः पाणिनीयाः नाम पाणिनिशिष्याः पाणिनिसम्बन्धवर्त्स इत्युक्ते ज्येष्ठाः पाणिनिशिष्याः उत पाणिनिः एव यदि प्रतिज्ञां कृत्वा वदति एषः अच् अनुनासिकः अस्ति इति प्रतिज्ञां करोति सः यतोहि अस्माभिः ज्ञातुं न शक्यते पूर्वं किम् आसीत् तत्र यत्र यत्र अनुनासिकवर्णः आसीत् तदा उपरि चन्द्रबिन्दुः आसीत् यथा हिंदी भाषायां विद्यते चांद इति हिंदी भाषायां लिखामश्चेत् चांद इत्यत्र उपरि तत्र चंद्रबिंदु विद्यते सयेव चंद्रबिंदु अत्र अनुनासिक संज्ञार्थं पाणिनिना उपयुज्यते अचाम यथा अस्माभिः अष्टादश वेदाः यदा वर्णिताः अस्माभिः अनुनासिक संज्ञा अस्माभिः ज्ञातम् पूर्वं तथा आसीत् सर्वत्र इदानीं तेन न ज्ञायते लिपिद्वारेण अस्माभिः ज्ञातुं न शक्यते उच्चारणद्वारेण न ज्ञातुं न शक्यते अतः पाणिनिशिष्याः पाणिनि उत पाणिनिः किं करोति इत्युक्ते प्रतिज्ञां करोति लण् सूत् पाणिनिशिष्याः उत पाणिनि अन्तेवासिनः यदि प्रतिज्ञां कुर्वन्ति स एव अनुनासिकः भवति यदि अनुनासिकः अच् भवति अच् इत्युक्ते स्वरः भवति तदपि उपदेशावस्थायां यदि भवति तदा तस्य इत्संज्ञा भवति इति एषः सूत्रः कथयति एतत् सूत्रं कथयति इदानीं तदेव मया लिखितं महर्षिणा पाणिना स्वकीये व्याकरणे अनुनासिकेषु स्वरेषु चन्द्रबिन्दुः इति योजितम् आसीत् किन्तु सः पाठः विलुप्तः अभवत् इदानीं किं लभ्यते पाणिनिशिष्याः प्रतिज्ञां कुर्वन्ति इदानीम् अत्र किं प्रतिज्ञा अत्र एतत् किमर्थम् उच्यते इत्युक्ते लण् प्रत्याहारे लकारोत्तर अकारस्य लकारोत्तर अकारः अच्वर्णः अस्ति अच्वर्णः न तु उच्चारणार्थः लण् मध्ये तु इत्संज्ञकः इति प्रवादः इति गुरुपरम्परा विद्यते एवं गुरुपरम्परया ज्ञात्वा लकारोत्तर अकारस्य अनुनासिकसंज्ञा विद्यते अनेन ज्ञायते अस्य लकारोत्तर इदानीम् अनुनासिकः इत्युक्ते उपदेशे अच् अनुनासिक इति माहेश्वरसूत्रमेव प्रप्रथमतया उपदिष्टं पाणिनिना अतः सः उपदेशः अभवत् धातुसूत्रगणोनादि सूत्रं मध्ये माहेश्वरसूत्राणि आगतम् इदानीम् अतः सः उपदेशः अभवत् उपदेशे अच् अकारः लण् मध्ये स्थित अकारः अनुनासिकसंज्ञको भवति केन पाणिनिशिष्यैः उत पाणिनिना गुरुपरम्परया उक्तेन यथा गुरुपरम्परावाचकं वाक्यं किं लण्मध्ये तु इत्संज्ञकः इति प्रवादः गुरुपरम्परावचनं तदेव अस्माभिः स्वीकर्तव्यं भवति तत् तेन किम् आगतम् इदानीम् अकारः इत्संज्ञको भवति इदानीम् अकारः इत्संज्ञकः इत्युक्ते आदिरन्तेन सहेता इति सूत्रस्य सहायेन हयवरट् इत्यत्र रेफं स्वीकृत्य अत्र लकारोत्तर अकारस्य अकारं स्वीकृत्य रप्रत्याहारः अस्माभिः कर्तुं शक्यते तेन किं रप्रत्याहारस्य र ल चेति वर्णयोः बोधकः र इति प्रत्याहारः एकः अस्ति रप्रत्याहारेण ऋ ल इत्यनयोः वर्णयोः बोधकः भवति अतः तद् संज्ञाप्रकरणे अपि अस्माभिः अधीतम् इदानीम् उपदेशे अजनुनासिक इत्यति सूत्रेण किम् आगतम् उपदेशे यदा उपदेशः इत्युक्ते आद्योच्चारणसमये आद्योच्चरणं नाम पाणिनिना आद्योच्चारणम् उत पाणिनिशिष्यैः यदुक्तं तत्समये यदि अनुनासिकः अच् भवति तदा स इत्संज्ञको भवति अनुनासिकः एव अच् इति कथं ज्ञायते अननुनासिक अच् अपि भवितुमर्हति अतः पाणिनिशिष्याः प्रतिज्ञां कुर्वन्ति तदा एव अनुनासिक अच् स्वीकर्तव्यः अत्र लण् सूत्रस्थ लकारोत्तर अकारस्य अनुनासिक अच्त्वं लण् मध्ये तु इत्संज्ञकः इति वाक्यस्य गुरुपरम्पराज्ञानेन किं स्वीकृतम् इत्संज्ञा स्वीकृता अकारस्य तेन हयवरट् इति सूत्रे रेफं स्वीकृत्य तदनन्तरं लकारोत्तर अकारस्य इत्संज्ञां स्वीकृत्य आदिरन्त्येन सहेत आदिवर्णः रेफः अन्त्यवर्णः ಅಂತ್ಯವರ್ಣಃ ಲಕಾರೋತ್ತರ ಅಕಾರಃ ತೇನ ರಪ್ರತ್ಯಾಹಾರ ಸಿದ್ಧಿ ಅನೇನ ಪ್ರತ್ಯಾಹ ಅಸ್ಮಿನ್ ಪ್ರತ್ಯಾಹಾರೇ ರಪ್ರತ್ಯಾಹಾರೇ ಕೇ ವರ್ಣಾಃ ಅಂತರ್ಭವಂತಿ ಇತಿ ಪ್ರಶ್ನೆ ಜಾತೆ ಋ ಲ ಏತೇ ವರ್ಣಾಃ ಅಂತರ್ಭವಂತಿ ಇದಾನೀ ಉರಣ್ ರಪರಃ ಇತಿ ಸೂತ್ರಂ ಆಗಚ್ಛಾಮಃ ಉಹು ಅಣ್ ರಪರೋ ಭವತಿ ಇತಿ ಸೂತ್ರಾರ್ಥಃ ಉಹು ಇತ್ಯತ್ರ ಪದಛೇ ಉಹು ಅಣ್ ರಪರೋ ಭವತಿ ಇತ್ಯುಕ್ತೆ ಉಹು ಅಣ್ ರಪರಃ ಇತಿ ಪದತ್ರಯಂ ವಿದ್ಯತೆ ಉಹು ಇತ್ಯಹ ಉಹು ಇತ್ಯಹ ಪಿತೃಶಬ್ದೇ ಇದಾನೀ ಪಿತಾ ಪಿತರೋ ಪಿತರಃ ಇತಿ ಪಿತಾ ಪಿತೃಶಬ್ದಸ್ಯ ಪ್ರಥಮಾವಿಭಕ್ತಿ ವಚನಸ್ಯ ರೂಪಾಣಿ ಏವಮೇವ ಋಕ ತಸ್ಯ ಪಂಚಮೀ ವಾ ಷಷ್ಠೀ ಭಕ್ತಿ ಷಷ್ಠೀ ಭಕ್ತಿ ಪಿತುಃ ಇತಿ ಭವತಿ ಏವಂ ಪಿಕಾರಂ ವಯಂ ನಿಷ್ಕಾಸಯಾಮಶ್ಚೇತ್ ತು ಇತಿ ತೃ ಇತಿ ಸ್ವೀಕುರ್ಮಶ್ಚೇತ್ ತುಃ ಇತಿ ಭವತಿ ಏವಂ ತಕಾರಂ ನಿಷ್ಕಾಸಯಾಮಶ್ಚೇತ್ ಉ ಇತಿ ಸ್ವೀಕರಣೇನ ಉಹು ಇತ್ಯನೇನ ಋಕಾರಸ್ಯ ಷಷ್ಠೀ ಭಕ್ತಿ ಆಗತಃ ಉರಣ್ ರಪರಃ ಇತಿ ಏತತ್ ಸೂತ್ರಂ ಏತತ್ ಸೂತ್ರಸ್ಯ ಪದಚ್ಛೇದಃ ಕ್ರಿಯತೆ ಚೇತ್ ಉಹು ಅಣ್ ರಪರಃ ಇತಿ ಪದತ್ರಯಂ ವಿದ್ಯತೆ ಉಹು ಇತ್ಯಹ ಋಕಾರಸ್ಯ ಷಷ್ಠೀ ವಿಭಕ್ತಿ ಏಕವಚನಂ ಷಷ್ಠೀ ವಿಭಕ್ತಿ ಕಿಂ ದ್ಯೋತಯತಿ ಯದಿ ಸಂಬಂಧಃ ಅನಿರ್ಧಾರಿತ ಸಂಬಂಧಃ ವಿದ್ಯತೆ ಋಕಾರಸ್ಯ ಸ್ಥಾನೇ ಇತಿ ಅಸ್ಮಾಭಿಃ ಸ್ವೀಕರ್ತವ್ಯಂ ಉಹು ನಾಮ ಋಕಾರಸ್ಯ ಸ್ಥಾನೇ ಅಣ್ ಇತ್ಯನೇನ ಕೇ ಕೇ ವರ್ಣಾಃ ಸ್ವೀಕರ್ತವ್ಯಾಃ ಕೇವಲಂ ಅಣುದಿತ್ ಸೂತ್ರೇ ಅಸ್ಮಾಭಿಃ ಪರನಕಾರಃ ಸ್ವೀಕರ್ತವ್ಯಃ ಸರ್ವತ್ರ ಅಣ್ ನಾಮ ಪೂರ್ವನಕಾರಃ ಏವ ಸ್ವೀಕರ್ತವ್ಯಃ ಅಣ್ ಪ್ರತ್ಯಾಹಾರೇ ಆ ಇ ಉ ವರ್ಣಾಃ ಸಂಗೃಹೀತಾಃ ಭವಂತಿ ಋಕಾರಸ್ಯ ಅಣ್ ಆ ಇ ಉ ವರ್ಣಾಃ ಅಣ್ವರ್ಣಾಃ ಯದಿ ಆಗಚ್ಛಂತಿ ಋಕಾರಸ್ಯ ಯದಿ ಅಣ್ವರ್ಣಾಃ ಆದೇಶಾಃ ಭವಂತಿ ತತ್ ರಪರಮಂ ರಪರೋ ಭವತಿ ಇದಾನೀಂ ಲೌಕಿಕ ಉದಾಹರಣಂ ಪಶ್ಯಾಮಃ ಅಹಂ ಕಮಪಿ ಆಹ್ವಯಾಮಿ ಮಮ ಗೃಹಂ ಪ್ರತಿ ಕೃಪಯಾ ಮಮ ಗೃಹಂ ಆಗಚ್ಛಂತು ಮಮ ವಿವಾಹಾರ್ಥಂ ಆಗಚ್ಛಂತು ತದಾ ಅಹಂ ಏಕಮೇವ ಆಹ್ವಯಾಮಿ ಮಮ ಮಿತ್ರಮೇವ ಆಹ್ವಯಾಮಿ ಸಹ ಕಿಂ ಕರೋತಿ ಸಹ ಅಹಂ ಮಮ ಮಿತ್ರಸ್ಯ ಗೃಹಮೇವ ಗಚ್ಛಾಮಿ ಮಮ ಪತ್ನಿಮಪಿ ಸ್ವೀಕೃತ್ಯ ಆಗಚ್ಛತಿ ಮಯಾ ಪತ್ನಿ ನಾಹೂತ ಕೇವಲಂ ಮಮ ಮಿತ್ರಸ್ಯ ಆಹ್ವಾನಂ ಮಯಾ ದತ್ತಂ ತಥಾಪಿ ಸಹ ಕಿಂ ಕರೋತಿ ಯತ್ರ ಯತ್ರ ಅಹಂ ಗಚ್ಛಾಮಿ ತತ್ರ ಪತ್ನ್ಯಾ ಸಹ ಏವ ಅಹಂ ಗಮಿಷ್ಯಾಮಿ ಗಚ್ಛಾಮಿ ಉತ ಪ್ರತಿಜ್ಞಾಂ ಕೃತವಾನ್ ಸಹ ಪೂರ್ವಂ ಅತಃ ಕೇಚನ ಜನಾಃ ಭೀತಾಃ ಭವಂತಿ ಪತ್ನಿ ವಿನಾ ಅನ್ಯತ್ರ ಗಚ್ಛಂತಿ ಚೇತ್ ತೇಷಾಂ ಯದಾ ಪುನಃ ಆಗಚ್ಛಂತಿ ತದಾ ಕಿಂಚಿತ್ ಕ್ಲೇಶಃ ಭವತಿ ಕಿಮರ್ಥಂ ತತ್ರ ಅಸ್ಮಾಕಂ ಬಹಿರ್ಗಮನಂ ನಾಸ್ತಿ ಇತ್ಯಾದಿಕಂ ಭವತಿ ಅತಃ ಸದಾ ಯತ್ರ ಯತ್ರ ಸಾಗಚ್ಛತಿ ಭವಾನ್ ತಂ ಯದಿ ಭವಾನ್ ಏಕಃ ಏವ ಆಗಚ್ಛತು ಮಮ ಗೃಹೇ ಉತ್ಸವಃ ಅಸ್ತಿ ಚೇತ್ ಸಹ ವದತಿ ಅಹಂ ಪತ್ನ್ಯಾ ವಿನಾ ಕುತ್ರಾಪಿ ನಾಗಮಿಷ್ಯಾಮಿ ಏತತ್ ಅಸ್ಮಾಕಂ ನಿಯಮಃ ಅಹಂ ಪತ್ನಿ ಸಹಿತ ದಂಪತಿ ಭೂತ್ವಾ ಏವ ಆಗಮಿಷ್ಯಾಮಿ ಇತಿ ಸಹ ವದತಿ ಏವಮೇವ ಉರಣ್ರಪರಃ ಇತಿ ಸೂತ್ರೇ ಕಿಂ ಭವತಿ ಅಣ್ವರ್ಣಃ ಯದಿ ಭವತಿ ಚೇತ್ ಋಕಾರಸ್ಯ ಸ್ಥಾನೇ ಅಣ್ವರ್ಣಃ ಯದಿ ಆಗಚ್ಛತಿ ಚೇತ್ ಆ ಇ ಉ ವರ್ಣಃ ಯದಿ ಆದೇಶ ರೂಪೇಣ ಆಗಚ್ಛಂತಿ ಚೇತ್ ಕೇನಚಿತ್ ಅನ್ಯೇನ ಸೂತ್ರ ನಿಯಮೇನ ತದಾ ಸಹ ಅಣ್ವರ್ಣಃ ಸ್ವಯಂ ನಾಗಚ್ಛತಿ ರಪರಂ ರೇಫ ಶಿರಸ್ಕೋ ಭೂತ್ವಾ ರಪರಂ ರಪರಃ ನಾಮ ರಪ್ರತ್ಯಾಹಾರಃ ರಪ್ರತ್ಯಾಹಾರ ಮಧ್ಯೆ ರಕಾರಃ ತತ್ರ ಲಕಾರಃ ದ್ವೌ ಅಪಿ ಸಹ ಏವಂ ಕಿಂ ಕರೋತಿ ಸಹ ರೇಫಮಪಿ ಆನಯತಿ ಯಥಾ ಏಷಃ ಗೃಹಸ್ಥಃ ಪತ್ನೀಂ ಸ್ವೀಕೃತ್ಯ ಯಥಾ ಉತ್ಸವಾರ್ಥಂ ಗಚ್ಚತಿ ತಥೈವ ಅಣ್ವರ್ಣಃ ಇದಾನೀಂ ಕಿಂ ಅಸ್ಮಾಕಂ ಉದಾಹರಣಂ ಕೃಷ್ಣಋದ್ಧಿಃ ಇತಿ ಉದಾಹರಣಂ ರಪರಃ ಇದಾನೀಂ ಪುನಃ ಸೂತ್ರಾರ್ಥಂ ಪಶ್ಯಾಮಃ ಋ ಇತಿ ತ್ರಿಂಶತಃ ಸಂಜ್ಞಾ ಇತಿ ಉಕ್ತಂ ತ್ರಿಂಶತಃ ಕಥಂ ಆಗತಂ ಋಲ್ರ್ ವರ್ಣಯೋಃ ಮಿತಸಾವರ್ಣ್ಯಂ ವಾಚ್ಯಂ ಇತಿ ಅಸ್ಮಾಭಿಃ ಅಧೀತಂ ಏವಂ ಋಕಾರಸ್ಯ ಅಷ್ಟಾದಶ ಭೇದಾಃ ಲೃಕಾರಸ್ಯ ದೀರ್ಘ ನಾಸ್ತಿ ಅತಃ ದ್ವಾದಶ ಭೇದಾಃ ಏವಂ ಅಷ್ಟಾದಶ ಪ್ಲಸ್ ದ್ವಾದಶ ಕಿಂ ಅಭವತ್ ತ್ರಿಂಶತ್ತಃ ಸಂಜ್ಞಾ ಅಭವತ್ ಋ ನಾಮ ತ್ರಿಂಶತ್ ಸಂಜ್ಞಾಃ ಅಸ್ಮಾಭಿಃ ಸ್ವೀಕರ್ತವ್ಯಂ तत्स्थाने ऋका एवं ऋकारस्य लृकारस्य स्थाने यदि अण् आदेशः भवति सः स्वयं नागच्छति अतिथिमपि आनयति अतिथिः कः इत्युक्ते अतिथिः रेफः ऋकारस्य स्थाने रेफः लृकारस्य स्थाने लकारः ल ल लकारः एवं इदानीं ऋ 18 प्लस लृ 12 विल बिकम 30 रपरः इत्युक्ते रः परः यस्मात् असौ रपरः इति बहुव्रीहि समासः प्रत्याहारः अस्ति षष्ठी स्थाने योगः इत्यनेन तत् स्वीकृत्य आगच्छति एवं भावार्थः एवं भवति उः अर्थात् ऋवर्णस्य स्थाने प्राप्यमाणाः आयीवु वर्णाः रपराः अर्थात् रकारपरकाः लकारपरकाः भवन्ति इदानीम् अस्माकम् उदाहरणं किम् एवं कृष्णरुद्धिः इति उदाहरणम् अकारात् परं ऋकारः आगतः इदानीं ऋकारः यदा आगच्छति तदा ऋकारः इदानीम् अकारस्य स्थानं कण्ठः ऋकारस्य स्थानं मूर्धा एवम् अर् इति अत्र आदेशः अर् अभवत् किमर्थम् अर् अभवत् अस्माकं तत्र आदेशः केवलं त्रयं विद्यते गुणः एव आदेशः भवितव्यं गुणवर्णाः एव आदेशः भवन्ति तत्र अकारः गुणवर्णः एकारः गुणवर्णः ओकारः ओकारस्य कण्ठोष्ठम् एकारस्य कण्ठतालो अकारस्य कण्ठः इदानीम् अकारः स्वयं नागच्छति इति अस्माभिः उरण्ड्रपरः इति सूत्रेण ज्ञातम् इत्युक्ते सः 1+1 फ्री इति यदा उच्यन्ति तत्र बिग् बजार् मध्ये यदि वयं गच्छामः इदानीमेकं स्वीक्रियते चेत् एकं फ्री आगच्छति इति यथा वदन्ति तथा एव इदानीं ऋकारः अस्ति इति कारणेन ऋकारः अस्ति अकारः स्वयं नागच्छति अकारः किं करोति रेफमपि आनयति रेफस्य स्थानं तु मूर्धा भवति एवम् अर् इति भवति उरण्ड्रपरः इति सूत्रं विना तत्र अर् इति रूपसिद्धिः न भवति इदानीम् उरण्ड्रपरः परिभाषासूत्रं विद्यते परिभाषासूत्रं किं वदति सदा नियमं करोति यत्र यत्र अण्वर्णः भवति अण्वर्णः आदेशरूपेण भवति तत्र तत्र अण्वर्णाः इत्युक्ते अकारः इकारः उकारः वर्णाः स्वपत्नीं पत्नीं वा रेफं लकारं वा स्वीकृत्यैव गच्छन्ति यदि ऋकारः अस्ति चेत् रेफं स्वीकुर्वन्ति यदि लृकारः स्वरवर्णः अस्ति चेत् लकारं स्वीकुर्वन्ति एवम् अर् इर् उर् इत्येव आगच्छन्ति न तु एकेन अ इ उ इति नागच्छन्ति अल् इल् उल् इत्येव आगच्छन्ति एवम् आ प्लस् महा प्लस् ऋषिः इत्यत्रापि अर् इत्यनेन भवति एवमेव तव प्लस् लृकारः इत्यत्रापि किं भवति अकारलृकारयोः सन्धिः विद्यते अत्र अकारस्य तत्र स्थाने अन्तरतमः इति सूत्रेण कः अन्तरतमः इति पृष्टे इदानीम् आदेशत्रयेषु अकारः गुणवर्णः अकारः कण्ठः कण्ठस्यैव आदेशः अन्तरतमत्वात् मोस्ट् प्राबल् कण्ठस्यैव स्वीक्रियते परन्तु लृकारः अपि अस्ति अतः उरण्ड्रपरः इति परिभाषासूत्रमागच्छति सः वदति इदानीम् अकारः अस्माभिः आदेशकर्तव्यः एकारः ओकारः तु अपगतः अतः अकारः अहम् अकारः कृपया आगच्छतु इति आह्वयति अकारः किं करोति आदेश अकारः सः शत्रुवदादेशः सः पश्यति अकारलृकारं पश्यति दृष्ट्वा वदति अहं किं करोमि अहं लकारमपि आनयामि इति उक्त्वा लकारमपि आनयति अल् इति भवति अल् आनीय आदेशो भूत्वा एकादेशो भूत्वा तव अल् कारः तवल् कारः इति रूपसिद्धिः भवति एवं गुणसन्धेहे अन्तिम टेबल् एवं विद्यते अकार आकारः पूर्ववर्णः भवति परवर्णः ईकारः उकारः तदा एवो अर् अल् आदेशाः भवन्ति एतदेव गुणसन्धिः इति उच्यते एवम् इदानीं किञ्चित् सारांशरूपेण वदामि अस्माभिः प्रथमं गुणसन्धिज्ञानार्थं किं कृतम् अदेङ्गुणः इति गुणसंज्ञा अस्माभिः ज्ञातम् गुणसन्धिविधायकं सूत्रं तु आद्गुणः विधिसूत्रम् गुणसंज्ञाविधायकं सूत्रम् अदेङ्गुणः संज्ञासूत्रं विद्यते प्रथमं गुणः नाम किम इति अदेङ्गुणः इति सूत्रेण अस्माभिः ज्ञातम्। तदनन्तरम् अदेङ्गुणः इत्यत्र अत् इति विद्यते। अत् इत्यस्य व्याख्यानम् अस्माभिः कथं स्वीकर्तव्यम् इत्युक्ते तपरस्तत्कालस्य इति तपरसूत्रेण तपरत्वात् अकारस्य तपरत्वात् एङः तपरत्वात् तत्कालस्यैव ग्रहणम् अस्माभिः कर्तव्यम् इति परिभाषानियमः आगच्छति। तदनन्तरं विधिसूत्रं प्रवर्तते आद्गुणः इत्यत्र। आद्गुणः इत्यत्र अवर्णात् अचिपरे पूर्वपरयोः एकः गुणः आदेशः स्यात् इति अवर्णात् आत् इत्यत्र अवर्णात् इति आगच्छति। अचिपरे इत्युक्ते तस्मिन् इति निर्दिष्टे पूर्वस्य इति आगत्य तत्र सन्धि भूत्वा उपेन्द्रः गङ्गोदकम् इत्यादि रूपसिद्धिः। तदनन्तरम् अस्माभिः तत्र लघुकौमुदीकारेण उपदेशे अजनुनासिक इति संज्ञासूत्रं कृतवान्। अस्मिन् संज्ञासूत्रे यदि उपदेशसमये कोऽपि अच्वर्णः विद्यते तदा सः अनुनासिकसंज्ञको भवति। एवम् अनुनासिकसंज्ञकः इत्संज्ञोऽपि भवति। इत्संज्ञस्य प्रयोजनं किम्? प्रत्याहारसिद्धिः उत लोपः। इदानीं कुत्र एतत् वेर् टु यूस् दिस् इत्युक्ते लण् प्रत्याहारे माहेश्वरसूत्रे लकारोत्तर अकारस्य इत्संज्ञा सञ्जाता। तेन हयवरट् इति सूत्रे रेफं स्वीकृत्य एतदकारम् इत्संज्ञकं स्वीकृत्य आदिः अन्त्येन, आदिः नाम रेफः अन्त्येन लकारोत्तर अकारेण इतासहितः इत्संज्ञको जाता। येन सूत्रेण इतासहितः मध्यगानाम् आदिः अन्त्येन इता आदिः अन्त्येन इता सह मध्यगानां स्वस्य च संज्ञा स्यात् इति मध्यवर्णानां ग्रहणं भवति। एवं रप्रत्याहारे रेफलकारयोः स्वीकृतिः अस्ति। तेन किम् अभवत्? उरण्परः इति सूत्रे रपरः नाम रप्रत्याहारः। रप्रत्याहारे रपरः भवति। अण् यत यत्र यत्र अण् आदेशाः भवन्ति, परिभाषासूत्रं वदति यत्र यत्र अण् आदेशाः भवन्ति तत्र तत्र अकारः स्वयं नागच्छति, परन्तु रेफमपि आनयति लकारमपि आनयति। अतः उरण्परः इत्यनेन अ प्लस् ऋ इत्यत्र, कृष्ण प्लस् ऋद्धिः इत्यत्र, अ ऋ इति स्थिते अर् इति भवति। स्थाने अन्तरतमः इति सूत्रनियमात् एव अत्र अन्तरतम्येन एकार ओकार अर् अल् आदेशाः भवन्ति इति उपसंहारः। इदानीं प्रश्नः किम् अस्ति? कृष्णरुद्धिः किं सन्धि? कृष्णरुद्धिः कृष्णरुद्धिः तदेव उच्यते गुणसन्धिः। कृष्णरुद्धिः इत्यत्र इदानीं पश्यतु, कृष्णरुद्धिः किं सन्धिः? कृष्णरुद्धिः इर् उर् एकम् उदाहरणं शक्यं वा? इदानीम् अर् आगतम्, इर् इर् उर् इत्यत्र इदानीम् अत्र गुणसन्धि गुणसन्धि उदाहरणं नास्ति। इर् इत्यत्र अत्र यत्र इकारः आदेशरूपेण भवति तदा इर् इत्येव आगच्छति। इदानीं झटिति न स्मर्यते, परन्तु अहं दृष्ट्वा वदामि, अग्रिमकक्षायाम् अवश्यं वदामि। अश्विनी लङ्के फ्रम् मुम्बै, अस्तु, अहम् अवश्यं वदामि। इरुर् इत्यस्य अन्यत्र प्रयोजनमस्ति, अत्र गुणसन्धि विधिसूत्रे प्रयोजनम् अत्र नास्ति। इदानीम् अवगतं वा सर्वैः गुणसन्धिः? एतत् सर्वं ज्ञायते, परन्तु पाणिनिः कथं चिन्तयति इति अस्माकं ज्ञानम् इदानीम् अभवत्। अस्तु, अत्रैव कक्षां समापयामः। येनाक्षरसमां नयमधिगम्य महेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनिये नमः। येन धोतागिरः पुंसां विमलैः शब्दवारिभिः तमस्तज्ञानं भिन्नं तस्मै पाणिनिये नमः। वाक्यकारं नत्वा सरस्वतीं देवीं शुद्धां गुण्यां करोम्यहं पाणिनीयप्रवेशाय लघुसिद्धान्तकौमुदीम्। राम राम राम। शुभरात्रि। असाइनमेंट दृष्ट्वा पंचदश दिवसेषु